एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली प्रजातन्त्रस्य कारणे नैव सम्प्रति स्वतन्त्रतापूर्णस्य न्यायपूर्णस्य च समाजस्य निर्माणं सम्भूतमस्तीत्यतः प्रजातान्त्रिकीं व्यवस्थां स्वीकर्तुं सर्वान् अनुरुणद्धि। पञ्चसप्ततितमस्य राष्ट्रिय प्रजातन्त्र दिवसस्य अवसरे ह्य टुडीखेलस्थिते सैनिक मञ्चे राष्ट्रिय प्रजातन्त्र दिवस मूल समारोह समित्या आयोजितं समारोहं सम्बोधयन् प्रधानमन्त्री ओली फाल्गुन मासस्य सप्तम दिवसेन समग्रोऽपि देशः स्वतन्त्रः सार्वभौमश्च कृतः इति अस्मरत्। प्रधानमन्त्री ओली यूनः समर्थान् विधाय समृद्धिं प्रति अग्रे नयनस्य सर्वकारस्य स्पष्टा नीति अस्ति इति प्रावोचत। समारोहे राष्ट्रपतिः रामचन्द्र पौडेलः, उपराष्ट्रपतिः रामसहाय प्रसाद यादवः, प्रधान न्यायाधीश प्रकाशमान सिंह राउत, सभामुखः देवराज घिमिरे, राष्ट्रिय सभायाः अध्यक्षः नारायण प्रसाद दाहालः, उपप्रधानमन्त्रिणौ मन्त्रिणः, सांविधानिक नियोगानां प्रमुखाः विशिष्टजनाश्च समुपस्थिताः आसन्। सप्तोत्तर द्विसहस्रतम विक्रम वर्षस्य फाल्गुन मासस्य सप्तमे दिवसे देशे प्रजातन्त्रस्य स्थापनायाः स्मृतौ प्रतिवर्षं फाल्गुन मासस्य सप्तमे दिवसे प्रजातन्त्र दिवसः समायोज्यते। राष्ट्रिय प्रजातन्त्र दिवसस्य अवसरे सर्वकारेण शान्तेः सुशासनस्य नवप्रवर्तनस्य वैज्ञानिकस्य अनुसन्धानस्य विकासस्य च क्षेत्रेषु योगदानं दत्तवद्भ्यः प्रतिभाशालिभ्यः नागरिकेभ्यः एतद् विक्रमवर्षीयः प्रधानमन्त्री राष्ट्रिय प्रतिभा पुरस्कारः प्रदास्यते। डाक्टर छिरिङ लामा, डाक्टर विराज सिंह थापा, पूर्णिमा श्रेष्ठ, आभास मास्के, हरिराम श्रेष्ठ, डाक्टर ओम मूर्ति अनिलः, सावित्रा भण्डारी, रविन्द्र पुरी, दिल शोभा श्रेष्ठ, रामजी अधिकारी च पुरस्कारेण अनेन सम्मानयिष्यन्ते। पुरस्कृतेभ्यः जनेभ्यः विशेषं समारोहम् आयोज्य पुरस्कारः प्रदास्यते। परराष्ट्रमन्त्रिणा डाक्टर आरजू राणा देवाभिधया भारतस्य भुवनेश्वरस्थितस्य कलिंगा इन्स्टिच्यूट अफ इण्डस्ट्रियल टेक्नोलोजी विश्वविद्यालयस्य छात्रावासे नेपाली छात्रायाः प्रकृतिलम्सालस्य मृत्योः तदनन्तरं विकसितायाः घटनायाश्च विषये ह्य ओडिशा प्रान्तस्य उच्चशिक्षामन्त्रिणा सूर्यवंशी सुराजेन सह दूरभाष वार्ता विहितास्ति। वार्तायाः क्रमे मन्त्रिणा राणाभिधया उच्चशिक्षामन्त्रिणा सुराजेन सह लम्सालस्य मृत्योः घटनायाः निष्पक्षम् अनुसन्धानाय, दोषिणां दण्डनाय च तत्र अध्ययनरतानां नेपाली छात्राणां सुरक्षायै च अनुरोधमिति परराष्ट्रमन्त्रिणः सचिवालयेन ज्ञापितं वर्तते। तदवसरे ओडिशा प्रान्तस्य उच्चशिक्षामन्त्रिणा सुरजेन घटनेयम् ओडिशा राज्येन गभीरेण गृहीतास्ति। छात्रायै न्याय प्रदानार्थं दोषिणां दण्डनार्थं च उच्चस्तरीयानुसन्धान समितिः संघटितास्ति इति ज्ञापितं वर्तते। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह निगदति स्थायित्वाय द्वयोः विपुल दलयोः सर्वकारः संघटितोऽस्ति। वर्दिया जनपदस्य बार वर्दिया नगरपालिकायाः प्राशासनिक भवनस्य विष्णुध्वनि बहु प्राविधिक शिक्षालयस्य च पूर्वे द्युद्घाटनं विदधान उपप्रधानमन्त्री सिंह संज्ञाधिनियमाः पर्याप्तरूपेण न निर्मिताः सन्ति इत्यतः त्रयाणामेव स्तराणां सर्वकाराणां सञ्चालनाय काठिन्यं सञ्जातमस्ति इत्यतः आवश्यकान् अधिनियमान् शीघ्रम् आनेतुं सर्वकारः क्रियाशीलोऽस्ति इति असूचयत। सर्वकारेण जनापेक्षाया अनुसारेण कार्यं विधीयमानं सदपि एतत् पर्याप्तं नास्ति इति चर्चयन् उपप्रधानमन्त्री सिंह प्रत्येकं क्षेत्रेषु कार्येभ्यः तीव्रता प्रदानार्थं त्रयाणामेव स्तराणां सर्वकाराणां समन्वयेन अग्रे सरणस्य आवश्यकता अस्ति इति अवोचत। राष्ट्रिय समाचार समित्या विश्वसनीयायाः जनोत्तरदायिन्याश्च पत्रकारितायाः माध्यमेन देशस्य समृद्धये योगदानं प्रदातव्यमिति सम्बद्धजनैः बलं प्रदत्तमस्ति। समितेः चतुष्षष्टितम वार्षिकोत्सवस्य अवसरे ह्यः आयोजिते समारोहे संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ, नेपाली पत्रकारितायाः समाचार कक्षाणां संकोचनस्य अवस्थायां राष्ट्रिय समाचार समित्या विश्वसनीय समाचाराणाम् उत्पादनं वितरणं च विधेयम् इति बलं प्रादात्। समारोहे मन्त्रालयस्य सचिव राधिकार्यालः नेपालस्य संविधानेन विहितायाः व्यवस्थायाः अनुसारेण नागरिकाणां संसूचनस्य अधिकारस्य क्रियान्वयनाय संचारमाध्यमे यही भूमिका निर्वोढव्येति विचारं व्यक्तवती। सार्वजनिक सेवा प्रसारण नेपालस्य कार्यकार्याध्यक्ष डाक्टर महेन्द्र विष्टः पश्चात्तन समये समित्या सव्यदृश्य सामग्रीणाम् उत्पादनेन सहैव बाह्यसभाषिणां सेवायाः अपि प्रारम्भस्य विषयः ऐतिहासिको स्थिति प्रावोचत। कार्यक्रमे समितेः कार्यकार्याध्यक्ष धर्मेन्द्र झा गुणस्तरीय समाचार सेवायाः प्रदानं राष्ट्रिय समाचार समितेः प्राथमिकतायाम् अस्तीति उदैरयत्। प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया गदति राजनीतिक दलानां प्रत्याशीनां च दायित्ववाहिनां अभावात निर्वाचन प्रणाली महर्गा सम्भूता अस्ति। नवम निर्वाचन दिवसस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते समारोहे प्रमुख निर्वाचन आयुक्तः थपलिया निर्वाचन व्यवस्थापनस्य व्ययः न्यूनः सन्नपि राजनीतिक दलैः प्रत्याशीभिश्च स्वस्य व्ययं प्रदर्श्य निर्वाचन प्रणाली महर्गयुता अस्तीति भाष्यं संस्थाप्यमानम् अस्तीति अवोचत्। नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत भासते नेपालस्य सामाजिक्या आर्थिक्या च क्रान्तेः नेतृत्वं नेपाली कांग्रेस दलेनैव विहितमस्ति। काभ्रे पलाञ्चोक जनपदीयस्य नेपाल शिक्षक संघस्य आयोजनायां ह्यः सम्पन्ने कार्यक्रमे प्रवक्ता डाक्टर महत बलप्रयोगं विनैव जनमतं विजित्य सत्ता प्राप्तेः मान्यता नेपाली कांग्रेस दलेनैव स्थापिता अस्तीति अवोचत्। नेकपा एमाले दलस्य महासचिव शंकर पोखरेल गदति नेपालस्य शिक्षा व्यावहारिकी व्यावसायिकी च विधातव्या। कपिलवस्तु जनपदस्य विजयनगर ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य गुगौली स्थाने स्थितस्य दुग्धाधारी नमूना माध्यमिक विद्यालय भवनस्य ह्य उद्घाटनं विदधान महासचिव पोखरेल यून आत्मनिर्भरान् विधातुं व्यावसायिक्यां शिक्षायां बलं ददत् शिक्षां नूतन प्रविधिना सह संयोज्य अग्रेवर्धनीयम् इत्यत्र बलं प्रादात्। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा अतः परं वर्षत्रयस्य अवधि कांग्रेस दलस्य कृते चतुरशीत्युत्तर द्विसहस्रतम विक्रम वर्षीय निर्वाचनस्य योजनया अपेक्षयापि गुणस्तरीय शिक्षा स्वास्थ्यं मृत्युपार्जनम् च सन्तीति उक्तवान् वर्तते। पाल्पा जनपदस्य पूर्व खोला स्थाने ह्य आयोजितम् प्रथम लोकतान्त्रिक महोत्सवम् सम्बोधयन् महामन्त्री थापा अतः परं निःशुल्कम् स्वास्थ्य शिक्षा पर्याप्त वृत्त्युपार्जनानां वातावरणस्य सर्जनत्वेन कांग्रेस दलेन कार्यं विधास्यते इति प्रतिबद्धतां व्यक्तवान्। कांग्रेस दलस्य कृते वर्षत्रयस्य अवधि पर्याप्तोस्तीत्यतः चतुरशीत्युत्तर द्विसहस्रतम विक्रम वर्ष पार्यन्तिक पार्यन्तिकं समयं यावद् उचितं कार्यं कृत्वा जनतायां गन्तव्यमिति अवोचत्। मध्यप्रदेशस्य मुख्यमन्त्रिणा सतीश कुमार सिंहेन बीरेगंज स्थाने सञ्चाल्यमानं नेपाल इण्डो हस्पिटल एण्ड आई सेन्टर प्राली नामकं चिकित्सालयं पिधातुं निर्दिष्टमस्ति। मुख्यमन्त्रिणा सिंहस्य नेतृत्वस्य अनुगमन समूहेन ह्य बीरगंज स्थानस्य विभिन्न नैज चिकित्सालयानां स्थलगतानुगमनस्य क्रमे एतेन चिकित्सालयेन प्रचलित विधेरनुसारेण चिकित्सालय सेवाया सञ्चालनाय स्वीकृति गृहीता नास्तीति दर्शनात् तत्र उपचाररतानां रोगिणां अन्यत्र स्थानान्तरणं कृत्वा चिकित्सालयं पूर्णरूपेण पिधातुं निर्दिष्टं वर्तते।